नवम मंत्र का शंकर भाष्य कथम पुनरेवम अवगम्यते न तु सर्वेषाम इति उच्यते अकामिनः साध्य साधन भेदोपमर्देन यस्मिन् सर्वाणि भूतान्यात्मैवा भूत द्विजानतः तत्र को मोहः कः शोकः एकत्वम् अनुपश्यतः इति यदात्मैकत्वविज्ञानम् उक्तम् तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चीचीषति इह तु समुच्चीचीषया अविद्वदादिनिन्दा क्रियते तत्र च यस्य येन समुच्चय सम्भवति न्यायतः शाश्वतो वा तदिहोच्यते इदैवं वित्तं देवताविषयं ज्ञानं कर्मसम्बन्धित्वेनोपन्यस्तं न परमात्मज्ञानं विद्यया देवलोकः इति पृथक् फलश्रवणात् तयोर्ज्ञानकर्मणोरिह एकैकानुष्ठान निन्दा समुच्चीचीषया न निन्दा परैव एकैकस्य पृथक् फलश्रवणात् विद्यया तदारोहन्ति विद्यया देवलोकम् न तत्र दक्षिणायन्ति कर्मणा पितृलोकः इति न हि शास्त्रविहितं किञ्चित् कर्तव्यतामियात् तत्र अन्धतमः अदर्शनात्मकं तमः प्रविशन्ति के ये अविद्यां विद्याया अन्य अविद्यातां कर्म इत्यर्थः कर्मणो विद्याविरोधित्वात् तामविद्यामग्निहोत्रादिलक्षणामेव केवलामुपासते तत्पराः सन्तो अनुतिष्ठन्तीत्यभिप्रायः ततस्तस्मादन्धकात्मकात्तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति के कर्म हित्वा ये ऊतु विद्यायामेव देवता ज्ञान एव रताः अभिरताः तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह अन्यथा फलवदफलवतोः सन्निहितयोरङ्गितैव स्याद् इत्यर्थः।